ओम् अथ सप्तमोऽध्यायः समरे शम्भोर् अनलस्तम्भाविर्कारः ईश्वर उवाच वत्सका स्वस्ति वः कश्चित् वर्तते मम शासनात् जगच्च देवता वंश स्वस्व कर्मणि किम् न वा प्रागेव विदितम् युद्धम् ब्रह्म विष्णोर्मया सुराः भवताम् अभितापेन पौनरुक्तेन भाषितम् इति सत्स्मितया माध्व्या कुमार परिभाषया समतोषयदम्बायाः सपदिस्तत्सुरव्रजम् अथ युद्धाङ्गनम् गन्तुम् हरिधात्रोरधीश्वरः आज्ञापयद्गणेशानाम् शतम् तत्रैव संसदि ततो वाद्यम् बहुविधम् प्रयानाय परेचितुः गणेश्वराज सन्नद्धा नानावाहनभूषणाः प्रणवाकारमाद्यन्तम् पञ्चमण्डलमण्डितम् आरुरोहरथम् भद्रम् अम्बिकापतिरीश्वरः ससूनुगणमिन्द्राद्याः सर्वे अनुययुः सुराः चित्रध्वज यजनचामरपुष्पवर्ष सङ्गीतनृत्य निवहैरपि वाद्यवर्गैः सम्मानितः पशुपतिः परया च देव्या साकम् तयोः समरभूमिम् मगात्स सैन्यः तमीक्षतु तयोर्युद्धम् निगूढोऽभ्रम् समासितः समाप्तवाद्य निर्घोषः शान्तोरुगणनिस्वरः अथ ब्रह्माच्युतौ वीरौ हन्तुकामौ परस्परम् माहेश्वरेण शास्त्रेण तथा पाशुपतेन च अस्त्रज्वालिरथो दग्धम् ब्रह्मविष्णोर्जगत्त्रयम् ईशोपितम् निरीक्ष्याथ चकालप्रलयम् भृशम् महानलस्तम्भ विभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ते अस्त्रे चापि सज्ज्वाले लोकसंहरणक्षमे निपेतदुक्षणेनैव याविर्भ्यूते महानलेम् दृष्ट्वा तदद्भुतम् चित्रम् अस्त्रशान्तिकरम् शुभम् किमेतद् अद्भुताकारम् इत्यूचुश्च परस्परम् अतीन्द्रियमिदम् स्तम्भम् अग्निरूपम् किमुत्थितम् अस्योर्ध्वम् अपि चाधश्च आवयोर्लक्ष्यमेव हि इति व्यवस्थितौ वीरौ मीलितौ वीरमानिनौ तत्परौ तत्परीक्षा सम्प्रतस्थातेऽथ तत्परम् आवयोर्मिश्रयोश्चत्र कार्यमेकम् न सम्भवेत् इत्युक्त्वा शूकरतनुर्विष्णुस्तस्यादिभीमान् तथा ब्रह्माहंसतनुस्तदन्तम् वीक्षितुम् ययौ भित्त्वा पातालनिलयम् गत्वा दूरतरम् हरिः नापश्यत्तस्य संस्थानम् स्तम्भस्तानलवर्चतः श्रान्तः शूकर हरिः प्राप पूर्वम् रणाङ्गनम् अदगच्छम् सु व्योम्ना च विधिस्तातपिता तव तदर्श केतके पुष्पम् किञ्चिद्विच्युतमद्भुतम् अतिसौरभ्यमम्लानम् बहुवर्षच्युतम् तथा अन्वीक्ष्य च तयो कृत्यम् भगवान् परमेश्वरः परिहासम् तु कृतवान् कम्पनाचलितम् शिरः तस्मातावनुगृह्णातुम् च्युतम् केतकमुत्तमम् किम् त्वम् वदसि पुष्पेश पुष्पराट्केन वेधृतः आदिमस्याप्रमेयस्त्वम् स्तम्भमभ्याच्युतिश्चिरम् न सम्पश्यामि तस्मात् त्वम् जह्याशाम् अन्तदर्शने अस्यान्तस्य च सेवार्थम् हंसमूर्तिरिवाहिहागतः इतः परम् सखेमेद्य त्वया कर्तव्यमीतितम् मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ स्तम्भान्तो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत इत्युक्त्वा केतकम् तत्र प्रणनाम पुनः पुनः असत्यमपि शस्तम् स्याद् आपदीत्यनुशासनम् समीक्ष्य तत्राच्युतमायतश्रमम् प्रणष्टहर्षम् तु ननर्थहर्षात् उवाच चैनम् परमार्थमच्युतम् षण्ढात्तवाद सविधिस्ततोच्युतम् स्तम्भाग्रमेतत् समुदीक्षितम् हरे तत्रैव साक्षी ननु केतकम् त्विदम् ततो वदत्तत्र हि केतकम् मृषा तदेति तद्धातृवचस्तदन्तिके हरिषु तत्सत्यमितीव चिन्तयंश्चकार तस्मै विधये नम स्वयम् षोडशैरुपचारैश्च पूजयामास तम् विधिम् विधिम् प्रहर्तुम् शतमग्निलिङ्गतः स ईश्वरस्तत्र बभूव साकृतिः समुत्थितः स्वामि विलोकनात् पुनः प्रकम्पपाणिः परिगृह्य तत्पदम् आभ्यन्तहीन वपुषि त्वयि मोहबुद्ध्या भूयान्विमर्शम् इह नावति कामनोत्तः सत्त्वम् प्रसीद करुणाकरकश्फलम् नौ मृष्टम् क्षमस्व विहितम् भवतैव केल्या ईश्वर उवाच वत्स प्रसन्नोऽस्मि हरे यतस्त्वम् ईशत्वमिच्छन् अपि सत्यवाक्यम् ब्रूयात् ततस्ते भविता जनेषु साम्यम् मया सत्कृतिरप्यलप्सि इतः परम् ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सव पूजनम् च इति देवः पुरा प्रीतः सत्येन हरये परम् तदौ सुसाम्यमत्यर्थम् देवसङ्घे च पश्यति इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् सप्तमोऽध्यायः ओम्।